सर्वेषां स्वागतम्. प्रार्थनया आरम्भं कुर्मः. का वक्तुमिच्छति? जयश्री भगिनी पठति वा? प्रथम सा एव अस्ति.
आं भगिनि.
धन्यवादः.
शुक्लाम्भरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं.
धन्यवादः भगिनी. अग्रे निर्मला भगिनी. सरस्वती
नमस्तुभ्यं. वरदे कामरूपिणी विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा.
धन्यवादः भगिनी. सागरी भगिनी, गुरुर्ब्रह्म.
गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः, गुरुर्साक्षात् परं ब्रह्म, तस्मै श्रीगुरवे नमः.
धन्यवादः भगिनी. अग्रे सविता भगिनी, प्रश्नः भवतु.
आं भगिनि. ॐ सहना भवतु, सहनौ भुनस्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम्.
धन्यवादः. अस्तु, विष्णुमहोदय सुभाषितम्.
काव्यशास्त्रविनोदेन कालो गच्छति धीमतां, व्यासनेन तु मूर्खाणां निद्रया कलहेन वा.
धन्यवादः. पुनरेकवारं महोदय.
काव्यशास्त्रविनोदेन कालो गच्छति धीमतां, व्यासनेन तु मूर्खाणां निद्रया कलहेन वा.
अत्र एकमेव अस्ति, व्यसनेन.
आमां, व्यसनेन.
व्यसनेन, अस्तु, नास्ति चिन्ता. सो अत्र सुभाषितकारः किं वदति, उदाहरणं वदति. धीमताम् इत्युक्ते कः? बुद्धिमन्तजनाः. बुद्धिमान् बुद्धिमन्तः जनाः कथं तेषां कालं यापयति, तस्य जीवनं कथं गच्छति. काव्यशास्त्रं, सो अत्र अर्थ अस्ति, अर्थमपि पठतु महोदय.
ये बुद्धिमन्तः सन्ति ते काव्येन, शास्त्रचर्चया, विनोदेन कालयापनं कुर्वन्ति. ते सर्वे काव्ये शास्त्रे विनोदेन भवति.
विनोदेन भवति इत्युक्ते सन्तोषम् अनुभवन्ति. काव्यं शास्त्रं पठित्वा अनन्तरं चर्चां कृत्वा सन्तोषम् अनुभवन्ति, तादृशं कालं यापयन्ति.
एतु मूर्खाः ते व्यसनेन निद्रया अथवा कलहेन कालनाशं कुर्वन्ति. तदनन्तरं कवि वक्तुं मूर्खाः ते व्यसने निद्रया वा कलहेन समयं नाशकुर्वन्ति.
अस्तु, व्यसनेन इत्युक्ते वैसस् दुर् अहं संस्कृतपदमहम् अन्वेषयामि. दुर् चारित्येन खलु
दुर्व्यवहारं.
दुर्व्यवहारं मच् बेटर्. दुर्व्यवहारेण निद्रां कृत्वा अथवा कलहेन इत्युक्ते क्वारल् तत् सम्यक् नास्ति, एतत् सम्यक् नास्ति इति कलहेन कालनाशं कुर्वन्ति. अतः वयं मूर्खाः इव न भवामः, बुद्धिमन्तः इव भवामः इति सुभाषितकारः वदन्ति. पुनरेकवारं पठतु महोदय काव्यशास्त्रम्.
आम् भगिनि, काव्यशास्त्रविनोदेन कालो गच्छति धीमतां, व्यसनेन तु मूर्खाणां निद्रया कलहेन वा.
धन्यवादः. अद्य अहं चिन्तयामि कथा मास्तु इति. सो अतः गीतं श्रुत्वा अग्रे गच्छामः. गतवर्गे किं वदामि, अर्थम् अवगमनार्थं समयः न आसीत्. सो अतः अद्य कुर्मः वा इति. अवनितलं पुनरवतीर्णा स्यात् इत्युक्ते अर्थः कः? अवनितलम् इत्युक्ते भूमौ पुनरवतीर्णा स्यात्. पुनरेकवारम्
आगतम्
आगमनीयम् संस्कृत. यथा गङ्गा आगता तादृश संस्कृतगङ्गा आगन्तव्यम् इति. वंशे वयं जननं कृतवन्तः. धीर भगीरथप्रयत्नम् इति वयं श्रुतवन्तः. भगीरथः तादृशप्रयत्नं कर्तुं वंशे वयं जननं कृतवन्तः. अतः तादृशं कुर्मः. वयं तु कृतनिर्धारा, वयं कर्तुं शक्नुमः तादृशवंशे वयं स्मः इति. निपततु पण्डित हरशिरसि इत्युक्ते पण्डितानां शिरसि इत्युक्ते मनसि. बुद्धौ संस्कृतं पततु. प्रवहतु नित्यम् इदं वचसि. वचसि इत्युक्ते मुखात् संस्कृतं प्रवहतु. प्रवहतु इत्युक्ते नद्यां जलं यथा प्रवहति तथा संस्कृतं प्रवहतु मुखात्. प्रविशतु वैयाकरणमुखम्. वैयाकरण इत्युक्ते ग्रामेरियन् खलु. ग्रामेरियन् वैयाकरणमुखं गच्छतु.
व्याकरणं
वैयाकरणं सम्यक्. व्याकरणं यः व्याकरणं पठति वदति सः अस्ति वैयाकरणं. वैयाकरणमुखं प्रविशतु अन्तः गच्छतु. अनन्तरं पुनरपि वहतात् जनानां मनसि गच्छतु संस्कृतं. पुत्रसहस्रं समुद्धृतं स्यात्. यान्तु च जन्म जन्मविकाराः. सहस्रजनानां जन्म वयं परिवर्तनं कुर्मः इति. ग्रामं गच्छाम, संस्कृतशिक्षां यच्छाम. ग्रामं गत्वा वयं संस्कृतशिक्षणं कुर्मः. यच्छामः दद्मः. सर्वेषामपि तृप्तिहितार्थं. हितम् इत्युक्ते तस्य बेनिफिट् इति वदामः खलु. तादृशं सर्वेषां हितार्थं कार्यं कृत्वा तृप्तिम् अनुभवामः. स्वक्लेशं न हि गणयेम. वयं किमपि क्लेशम् अनुभवामः चेत् तत् ओ क्लेशं क्लेशः एवम् अस्ति इति वयं न गणयाम. इत्युक्ते क्लेशः भवति एव, चिन्ता नास्ति इति कृत्वा अग्रे गच्छामः. कृते प्रयत्ने किं न लभेत् एवं सन्ति विचाराः. इत्युक्ते वयं प्रयत्नं कुर्मः चेत् सर्वं लब्धुं शक्नुमः. किं न लभेत् सर्वं लब्धुं शक्नुमः एवं वयं चिन्तयामः. एवं सन्ति विचाराः, एवं वयं चिन्तयामः. किं लाभः कः, लाभः कः इति न पृच्छामः. या माता संस्कृतिमूला, मूला अस्ति, या माता संस्कृतिमूला तस्या व्याप्तिः सुविशाला. संस्कृतिमूला या अस्ति, भारतदेशमाता वा सरस्वती वा संस्कृतमाता वा, संस्कृतिमूला व्याप्तिः सुविशाला. व्याप्तिः इत्युक्ते आङ्ग्लभाषायां पर्वेडिङ्ग् इति वदामः खलु, सर्वत्र भवति, आकाशः इव. सुविशाला सर्वत्र अस्ति. अग्रे वाङ्मयरूपा सा भवतु. वाङ्मय इत्युक्ते
साहित्य,
साहित्य वाक्, वाक् अस्ति वाङ्मय. सो अत्र वयं यद् वदामः तत् सर्वत्र भवतु. वाङ्मयरूपा इत्युक्ते सर्वे वदामः, इत्युक्ते सम्भाषणं सर्वस्य सर्वानां मुखात् आगच्छतु इति. वाङ्मयरूपा सा भवतु, लेट् इट् बि अ स्पीकिङ्ग् लेङ्ग्वेज्. वाङ्मयरूपा सा भवतु इति इत्युक्ते संस्कृतं, संस्कृतमाता भवतु. लसतु चिरं सा वाङ्माला इत्युक्ते, लसतु इत्युक्ते लेट् इट् शैन् इति. लसतु चिरं, चिरम् इत्युक्ते
लाङ्ग् टैम्,
लाङ्ग् टैम् सर्वदा, चिरञ्जीवी इति वदामः खलु तादृशं. लसतु चिरं सर्वदा लसतु सा वाङ्माला इत्युक्ते वाक्, वाक् इति तादृशं भवति सन्धि भूत्वा. वाङ् वाङ्माला इत्युक्ते सम्भाषणम्. सुरवाणीं जनवाणीं कर्तुं यतामहे कृति शूराः. इत्युक्ते सुरवाणी, वाणी इत्युक्ते अपि वाक्, वाक् एव वाणी अथवा सरस्वती. सुरवाणी सुर उत्तम देवी, सुर असुर, सुर सुर सुरवाणीं देववा जनवाणीं. सुरवाणीम् इत्युक्ते देववाणीं, जनवाणीम् इत्युक्ते अस्माकम् अस्माकं वाणीं कर्तुं यतामहे, यतामहे प्रयत्नं कुर्मः, प्रयत्नं कुर्मः. किमर्थम् इत्युक्ते वयं कृतशूराः, वयं तादृशशूराः, कार्यं कार्यं कर्तुं समर्थाः स्मः वयम् इति. अस्तु, इदानीं वयं गीतं शृणुमः वा? अवनितलं पुनरवतीर्णा स्यात्, अवनितलं पुनरवतीर्णा स्यात्. इदानीं पूर्णवाक्यं वदामः. अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा. अवनितलं पुनरवतीर्णा स्यात् गङ्गाधारा धीरभगीरथवंशोऽस्माकं पयन्तु कृतनिर्धारा पयन्तु कृतनिर्धारा पुनरेकवारम् अवनितलं पुनरवतीना स्यात् संकृतगङ्गाधारा धीरभगीरथवंशोऽस्माकं वयन्तु कृतनिर्धारा वयन्तु कृतनिर्धारा
संस्कृतगङ्गाधारा
उत्तमं निपततु पण्डितहरशिरसि प्रवहतु नित्यमिदं वचसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं पुनरपि वहता जनमनसि
प्रविशतु वैयाकरणमुखं
पुनरेकवारं निपततु सर्वे वदन्तु निपततु
पण्डितहरशिरसि नित्यमिदं वचसि
पुत्रसहस्रं समृद्धतं स्यात् पुत्रसहस्रं समुद्धृतं स्यात् यान्तु च जन्म अग्रे गच्छामः वा ग्रामं ग्रामं गच्छाम संस्कृतशिक्षां यच्छाम ग्रामं सर्वेषामपि तृप्तिः तातं स्वक्लेशं न हि गणयेम सर्वेषामपि कृते प्रयत्ने किं न लभेत कृते प्रयत्ने किं न लभेत देवं सन्ति विचारा
वयं तु कृतनिर्धारा
वयं तु कृतनिर्धारा अग्रे गच्छामः वा?
आं भगिनि.
माता संस्कृतिमूला स्या, या माता संस्कृतिमूला, या माता संस्कृतिमूला, या माता संस्कृतिमूला, यस्या वा सम्यक् नास्ति. या माता संस्कृतिमूलाय, अस्तु अग्रिमवर्गे पठामः एतत्. अस्तु, प्रथमतः पूर्वस्मिन् इदमात्रं वदामः. पद्धति अस्ति, प्रथम पङ्क्ति अस्ति, द्वितीय, तृतीय, एतत् पर्यन्तं वयं गायामः पुनरेकवारम्. अग्रिमवर्गे अहं समीकृत्वा गायामि. प्रथमतः आरम्भतः कुर्मः, प्रथमपङ्क्तितः. अस्तु, अवनितलं मिलित्वा गायामः. अवनितलं पुनरवतीरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्तिरभक्त निपततु पण्डितहरशिरसि प्रवहतु
नित्यमिदं वचसि
प्रविशतु
कर्णमुखं
पुनरपि
मनसि
पुत्र संस्कृतशिक्षा सर्वेषामपि कृते प्रयत्नं करोमि पुनरेकवारं या माता संस्कृतिमूला या माता संस्कृतिमूला यस्या व्याप्ति सुविशाला यस्या व्याप्ति सुविशाला वाङ्मयरूपा सा भवतु लसतु चिरं सा वाङ्माला वाङ्मयरूपा सा भवतु लसतु चिरं सा वाङ्माला सुरवाणीं जनवाणीं सुरवाणीं जनवाणीं कर्तुं यतामहे कृतिशूरा वीरभगीरथवंशोऽस्माकं वयन्तु अस्तु वा उत्तमगीतमेव अस्तु वा अग्रे गच्छामः धन्यवादः सो अत्र सतीसप्तमी इति अहम् उक्तवती सतीसप्तमी प्रयोगस्य उदाहरणद्वयम् अहं लिखितवती एतत् अस्ति प्रथमम् अस्ति वर्तमानकाल द्वितीयम् अस्ति ओ तादृशं न एकनिमिषं कुत्र अस्ति इति पश्यामि द्वयमपि सम्यक् न अस्तु अत्र केवलं भूतकालमेव लिखितवती अस्तु यदा बालकः गतवान् तदा बालिका आगतवती इति वाक्यम् अस्ति सो अत्र केवलम् एकः एव कर्ता इति न एकः एव कर्ता अपि सम्यक् एव परन्तु साधारणतया कर्ता द्वयम् यदा बालकः गतवान् तदा बालिका गतवती इति वाक्यद्वयम् अस्ति सो अतः प्रथमवाक्यमस्ति यदा तदा उपयुज्य यदा तदा उपयुज्य प्रथम यदा बालकः गतवान् तदा बालिका आगतवती इति सो अत्र सतीसप्तमी प्रयोगे किं भवति यदा तदा वयं त्यजामः त्यक्त्वा बालकः गतवान् एव अस्ति बालकः गतवान् इति वयं सप्तमी विभक्तिरूपे लिखामः बालकः इति मूलरूपं बालक तस्य सप्तमी विभक्ति अस्ति बालके गतवान् इति पदस्य मूलरूपम् अस्ति गतवत् गतवत् इति भवत् शब्दः इव भवत् शब्दस्य मूलरूप सप्तमी विभक्ति अस्ति गतवती भवति इव भवति भवत् शब्दस्य भवति गतवत् शब्दस्य गतवती सो अतः बालके गतवती सती सती इति वदामः परन्तु वक्तव्यमेव इति नास्ति सती इति वदामः चेत् सतिसप्तमी प्रयोगः इति सूचयामः बालके गतवती सती बालिका आगतवती बालिका आगतवती इति परिवर्तनं न भवति बालिका आगतवती एव इदानीं स्त्रीलिङ्गे कथं भवति यदा बालिका गतवती तदा अम्बा आगतवती इति अस्ति अथवा किमपि भवतु यदा बालिका गतवती तदा कार्यानम् आगतम् अथवा जनकः आगतवान् किमपि भवतु तदा बालिका इति पदस्य सप्तमी अस्ति बालिकायां पाठशाला पाठशालायां स्वतः बालिकायां गतवती ईकारान्तशब्द नद्याम् इति अस्ति अतः गतवत्यां बालिकायां गतवत्यां सति इति अस्ति परन्तु अत्र सत्याम् इति भवति बालिकायां गतवत्यां सत्याम् अम्बा आगतवती अम्बा आगतवती इत्येव सतिसप्तमी प्रयोगः अस्ति प्रश्नः वा ऐ मीन् सम्यक्तया न अवगच्छन्ति चेत् चिन्ता नास्ति परन्तु केवलं कथायाम् आगच्छति चेत् अह एतत् सतिसप्तमी प्रयोगः कर्मणि प्रयोग वयं सम्यक्तया न पठितवन्तः परन्तु अवगच्छन्तु एतत् कर्मणि प्रयोगः तथा एतत् सतिसप्तमी प्रयोगः इति केवलम् अवगमनार्थमेव अहं वदामि प्रश्नः अस्ति वा अस्तु, अत्र सप्तमी विभक्तेः रूपाणि एवम्। अकारान्तपुल्लिङ्गपदमस्ति रामे रामयोः रामेषु, एतत् वयं जानीमः एव, रामे रामयोः रामेषु। एवमेव भवति नपुंसकलिङ्गे अपि, ज्ञाने ज्ञानयोः ज्ञानेषु, गृहे ग्रामे ग्रामयोः ग्रामेषु इति। आकारान्तस्त्रीलिङ्गमपि वयं जानीमः एव खलु, रमायां रमयोः अयोः भवति सु, अत्र एव सु भवति, अत्र अपि च सर्वनामपदे सु, तस्यां तयोः तासु, मयि अवयोः अस्मासु, वयि युवयोः युष्मासु, अत्र एव सु भवति। अन्य सर्वत्र शु एव, रामेषु, परन्तु हरि अस्ति चेत् हरिषु, हरौ भवति। इकारान्तपदमस्ति चेत् औ भवति, रात्रिः स्त्रीलिङ्गे रात्रिः रात्रौ, मतौ मत्योः मतिषु, मूलरूपं शु, सर्वत्र मूलरूपं शु भवति, परन्तु अकारान्तपुल्लिङ्गे एव एषु इति भवति, रामेषु ज्ञानेषु, पुल्लिङ्ग नपुंसकलिङ्ग सर्वनामपदम् एषु, तस्मिन् तयोः तेषु इति भवति, तेषु स्त्रीलिङ्गे
तासु,
तासु सम्यक्। सो अत्र स्त्रीलिङ्गे इकारान्त उकारान्तपदे विकल्पद्वयं भवति, स्त्रीलिङ्गवत् मत्यां धेन्वाम् इति भवति, पुल्लिङ्गवत् मतौ धेनौ गुरौ हरौ इव भवति, एकवचने एव, द्विवचने समानरूपं, मत्योः हर्योः गुर्वोः धेन्वोः, उकारः अस्ति चेत् ओ भवति, गुर्वोः भवति, अति अपि च वकारः भवति, वकारः ई अस्ति चेत् हरि अस्ति चेत् हर्योः, पति पत्योः एवं भवति, पति शब्दे एव पत्युः। अन्य सर्वत्र इकार अस्ति चेत् हरौ औ भवति, मतौ इव गुरौ, अपि च ईकारान्त स्त्रीलिङ्गस्य गौर्यां नद्याम् इति भवति, यथा या अस्ति ऊकारान्तपदम् स्त्रीलिङ्ग अस्ति चेत् वां भवति, वद्वां वद्वोः वधूषु गौरीषु। नपुंसकलिङ्गं प्रति गच्छामः, अत्र नकारः भवति, वारिणि वारिणि वारिणोः वारिषु, वारिणिः न, मुद्रणदोषः अस्ति, अहं समीकरोमि, वारिणिः न वारिणि एव, वारिणि वारिणोः वारिषु, मधुनि मधुनोः मधुषु। ऋकारान्तपदं पितरि पित्रोः पितृषु, मातरि मात्रोः मातृषु। सो अत्रापि धातृ अस्ति, धातृणि धातृणोः धातृषु, अथवा यथा पितरि मातरि अस्ति धातरि धात्रोः धातृषु। एतानि रूपाणि अभ्यासेन मनसि तिष्ठति, अस्तु वा, एकवारं पठित्वा वयं सम्यक् जानीमः इति न भवति एव, पुनः पुनः अभ्यासं कृत्वा वयम् अवगन्तुं शक्नुमः वयम्। अस्तु, अत्र सतिसप्तमी कथमस्ति इति पुस्तकात् स्वीकृतवती अहं, गीता सोपानं गीताप्रवेश इति अड्वान्स् लेवल् पुस्तकम् अस्ति, परन्तु अवगमनार्थम् उदाहरणं पश्यामः। यदा गोपालः सो अत्र गच्छति इति अस्ति, प्रथमं वर्तमानकाले कथं भवति इति पश्यामः. कुत्र अस्ति? अस्तु, अत्र प्रथमम् अहं लिखामि. यदा गोपालः गच्छति इति प्रथमं भवति. यदा गोपालः गच्छति अत्र भूतकाले अस्ति, परन्तु यदा गोपालः गच्छति तदा अनुजा प्रकोष्ठं तस्य प्रकोष्ठं गच्छति. इदानीं वर्तमानकालं पश्यामः. वर्तमानकालम् अत्र अस्ति चेत् प्रथमम् अस्ति शत्रुप्रत्ययं प्रति गच्छतु इति. शत्रुप्रत्ययं कथम् इट् इस् अ वेरि काम्प्लिकेटेड्, परन्तु अहं वदामि. गच्छति इति अस्ति चेत् गच्छन्ति प्रथम सोपानम् अस्ति गच्छन्ति इति बहुवचनरूपं लिखतु. लट्लकार बहुवचनरूपं गच्छन्ति इति अस्ति. सो तृतीयसोपानम् अस्ति ति इति त्यजतु. सो अत्र गच्छन् भवति. गच्छन् इति शत्रुप्रत्यय पुल्लिङ्ग, पुल्लिङ्ग शत्रुप्रत्यय. सो अतः सो एतत् आगच्छति. गच्छन् इति पुल्लिङ्ग अस्ति. प्रातिपदिकं किं? गच्छत्. गच्छत् इति भवति. गच्छत् इति प्रातिपदिकं. पुल्लिङ्गे गच्छन्, स्त्रीलिङ्गे गच्छन्ति इति भवति, नपुंसकलिङ्गे गच्छतेव. सो अतः प्रातिपदिकम् अस्ति गच्छत्. गच्छत् इति पदस्य सप्तमी विभक्ति किं? गच्छत्. गच्छति. सो अतः अत्र आगच्छति. गोपाले गोपालः इति प्रथमाविभक्तिरूपं, सप्तमी अस्ति गोपाले. गच्छत् इति पदस्य सप्तमी अस्ति गच्छति. गच्छति. अनुजा तस्य प्रकोष्ठं गतवती. गतवती मास्तु, वयं सो अत्र गच्छन्ति इति अस्ति खलु, तत् गच्छति एव भवति. वयं गच्छति इति लिखितवती खलु, लिखितवन्तः. अहं लिखितवती, वर्तमानकाले लिखितवती गच्छति अथवा गतवती एव वदन्तु, नास्ति चिन्ता. अवगच्छन्ति वा? किञ्चित् अपि? अस्तु. अन्यत् एकं, यदा शिक्षकः वदन् आसीत् तदा छात्राः श्रुतवन्तः. छात्राः श्रुतवन्तः तथा एव भवतु. यदा तदा त्यजतु. शिक्षकः शिक्षके भवति. वदन् कथं भवति? वदन् वदत् भवति. वदति. शिक्षके वदति छात्राः श्रुतवन्तः. एवमेव भवति सति सप्तमी इति. एतत् गीताप्रवेशे, गीताप्रवेशः इति पुस्तकं पुट. सो अत्र उत्तराणि अपि सन्ति, आवश्यकं चेत् अहं प्रेषयामि. केवलं ज्ञानार्थमेव. अस्तु, अस्माकं गीतासोपानं प्रति गच्छामः. सो वयम् इदानीं सप्तमी विभक्तिं पठामः खलु. अस्तु. सो नमस्कार भगिनि. गोपिका, स्वागतं भगिनि.
धन्यवादः.
अस्तु, सो अत्र सप्तमी विभक्ति वयं जानीमः एव. महाराजः गजे उपविशति. पठति वा जयश्री भगिनि?
आं भगिनि. स्वधर्मनिधानं श्रेयः सप्तमी विभक्तिः. महाराजः गजे उपविशति. खगाः आकाशे विहरन्ति. आञ्जनेयः ध्वजे विलसति. छात्राः विद्यालये पठन्ति.
विद्यालये छात्राः विद्यालये पठन्ति. सो अत्र गजः इति पुल्लिङ्गपदम्, आकाशः पुल्लिङ्ग, ध्वजः पुल्लिङ्गः, विद्यालयः पुल्लिङ्ग. पुल्लिङ्गपदम् अस्ति चेत् अग्रे एकारः श्रूयते, अन्ते एकारः, गजे बालके इति. सो अत्र स्वधर्मः, धर्मः अपि पुल्लिङ्गपदं, स्वधर्मे निधनं श्रेयः. सो एतत् भगवद्गीतातः स्वीकृतः. अर्थः कः इत्युक्ते स्वधर्मम् एव आचरामः, अन्यस्य कार्यं न कुर्मः, अस्माकं कार्यमेव कुर्मः इति. अस्माकं कार्यं कर्तुं समये निधनम् इत्युक्ते
लास्,
नष्टं. नष्टम् अस्ति चेत् अपि तत् नष्टं श्रेयम्, उत्तमम् अस्ति. अन्यस्य कार्यं कृत्वा वयं किमपि सम्पादयामः चेत् अपि तत् सम्यक् नास्ति. अस्माकं नष्टमेव उत्तमं. श्रेयः इत्युक्ते अति उत्तमं. किमर्थम् इत्युक्ते अस्माकं धर्ममेव उत्तमम् इति. अस्माकं धर्मः एव उत्तमः. अस्माकं धर्ममेव कुर्मः इति. अस्तु अस्तु, अग्रे गोपिका भगिनी पठितुम् इच्छति वा?
आं भगिनि.
शिशुः
शिशुः प्रेङ्खायाम् अस्ति. चित्रं वेदिकायाम् अस्ति. वर्णाः पिच्छिकायां सन्ति. जनाः वाटिकायां विहरन्ति.
वाटिकायां विहरन्ति. सो अत्र अस्ति आकारान्त स्त्रीलिङ्गपदम्. आकारान्त स्त्रीलिङ्ग अथवा ईकारान्त स्त्रीलिङ्गे अपि अन्ते यां भवति. प्रेङ्खायां, वेदिकायां, पिच्छिकायाम् इति, वाटिकायां, यां यां. सो अत्र पूर्ण पदं लिखित्वा अनन्तरं यां योजयामः. प्रेङ्का प्रेङ्खायां, वेदिका वेदिकायां, पिच्छिका पिच्छिकायाम् इति, वाटिकायां, बालिका. पिच्छि इत्युक्ते टेल् इति वदामः खलु. अस्तु अग्रे निर्मला भगिनि. अत्रैव अस्ति खलु बाणाः.
सन्ति योधारः रणक्षेत्रे युध्यन्ते. श्रान्तः कुटीरे निद्राति. बालः गृहे तिष्ठति.
तिष्ठति. सो अत्र सर्वाणि पदानि नपुंसकलिङ्गपदानि. तूनीरं तूनीरे, क्षेत्रं क्षेत्रे, कुटीरं कुटीरे, गृहं गृहे. अत्रापि यथा पुल्लिङ्गे वयम् एकारः श्रूयते तथा एव नपुंसकलिङ्गे अपि तथा एव भवति. सो अग्रे का वदति? मालती भगिनी वक्तुम् इच्छति चेत् अन्म्यूट् करोतु, नो चेत् सागरी भगिनी.
इच्छति
मालति वा? अस्तु वदतु भगिनि.
औषधं कूप्याम् अस्ति. औषधं कूप्ये अस्ति.
कूप्याम् एव सम्यक्. कूप्याम् औषधं कूप्याम् अस्ति. कूप्याम्
कूप्याम्
नदी कुत्र अस्ति?
ओ औषधं कूप्याम् अस्ति.
नौका.
ओ नौ ऐ हेव् टु टाक् अबौट् नदि.
नो नो यु जस्ट् हेव् टु रीड् भगिनि तावत् एव.
ओके ओके. औषधं कूप्याम् अस्ति. नौका नद्याम् अस्ति. वस्तूनि प्रदर्शिन्याम् अस्ति. जलं वाप्याम् अस्ति.
वाप्याम् अस्ति. सो अत्र एकायां सम्यक् भगिनि, धन्यवादः. अत्र
वाप्यां भगिनि,
वापि इत्युक्ते सरोवरः, पाण्ड् इति पाण्ड्.
ओके.
सरस् इति सरोवरः, एतादृशम् अस्ति. अस्तु. कूपी कूप्यां, नदी नद्यां, प्रदर्शिनी प्रदर्शिन्यां, वापी वाप्यां. सो अत्रापि यां याम् इति आगच्छति, परन्तु पूर्णपदं लिखित्वा न. यथा वयम् आकारान्तस्त्रीलिङ्गम् इति अस्ति चेत् पूर्णपदं लिखित्वा आ इति अन्ते भवति, अनन्तरं यां योजयामः. परन्तु ईकारान्तपदे तादृशं नास्ति. ततः पूर्वं व्यञ्जनं भवति, व्यञ्जनम् अर्धमेव भवति, पूर्णव्यञ्जनं न. उदाहरणार्थं कूप्यामति. सो अत्र पकारः हलन्तशब्दमेव श्रूयते. कूप् यां, नदी अस्ति नद् यां, एवं भवति. अस्तु. सो इदानीं द्विवचनं निर्मला भगिनी अभवत् खलु. सागरी भगिनि.
आं भगिनि. किं किं यौ पादयोः स्तः, बटाः रतयोः सन्ति, फलानि वृक्षयोः सन्ति, कङ्कणानि हस्तयोः सन्ति.
सम्यक् पादे पादयोः, रथे रथयोः, वृक्षे वृक्षयोः, द्विवचनम् अस्ति अत्र. किं किं यौ इत्युक्ते नूपुरः. अस्तु. अग्रे सन्ध्या भगिनी, लता. क्लेशः इति चिन्तयामि. सविता भगिनि.
भगिनि.
आम्.
वदामि.
स्वागतं, वदतु भगिनि.
किङ्किन्यौ पादयोः स्तः आगच्छति.
इत्युक्ते किङ्किन्यौ अपि द्विवचनं. किङ्किनी द्वयम् अस्ति खलु, अतः अस्ति स्तः सन्ति. भटा बहुवचनम्, अतः सन्ति. फलानि बहुवचनं, सन्ति. अत्र किङ्किन्यौ द्विवचनम्, अतः स्तः. अस्ति स्तः सन्ति. अस्तु, उत्तमं. सविता भगिनी अग्रे. पर्णानि.
आं भगिनि. पर्णानि लतयोः सन्ति. यात्रिकाः नौकयोः सन्ति. वस्त्राणि पेटिकयोः सन्ति. पुस्तकानि निधानिकयोः सन्ति.
अस्तु, सम्यक्. सो अत्र धन्यवादः भगिनि. सो अत्र पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे अपि समानरूपमेव भवति. अयोः अयोः तत् स्मरन्तु. आयोः न, लतायोः न भवति. लतायोः न, लतयोः एव. तत् स्मरन्तु सर्वे. नौका नौकयोः, पाद पादयोः. पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे अपि समानरूपमेव भवति. अस्तु, अग्रे. उषा भगिनी
जलं द्रोण्योः द्रोण्योः अस्ति मीनाः नद्योः सन्ति तैलं दर्व्योः अस्ति मशी पुनः पुनः पूरण्योः अस्ति
पुनः पूरण्योः अस्ति
मशी पुनः पूरण्योः अस्ति
अस्ति अस्तु सो अत्र अत्रापि यथा द्रोणी द्रोण् याम् इति अस्ति खलु द्रोण् क्षम्यतां द्रोण् इति हल् हलन्तपदमेव अस्ति हल् अन्तपदं हलन्तपदम् इति लिखित्वा अनन्तरं याम् इति एकवचने परन्तु अत्र योः द्रोण् योः नद् योः परन्तु सर्वत्र योः एव पुल्लिङ्गस्त्रीलिङ्ग नपुंसकलिङ्गे ईकारान्तस्त्रीलिङ्ग अस्ति चेत् द्रोण्योः इति भवति अकारान्तपदम् अस्ति चेत् अयोः अन्य उकार इकार अस्ति ऋकार अस्ति चेत् हलन्तपदम् इव लिखित्वा अनन्तरं योः इ अस्ति चेत् योः उ अस्ति चेत् वोः इति भवति अ अथवा इ अस्ति चेत् योः योः उ अस्ति चेत् वोः ऋकारान्तपदम् अस्ति चेत् रोः इति भवति एवमेव पेटर्न् अ इ अस्ति चेत् योः उ अस्ति चेत् वोः ऋ अस्ति चेत् रोः एवमस्ति पेटर्न् अस्तु वीणाबेन् भगिनि
नमस्कारः भगिनि
नमस्कारः भगिनि
चक्राणि चन्दनयोः सन्ति अश्रुणि नेत्रयोः सन्ति अलङ्कारः द्वारयोः अस्ति चित्राणि पुस्तकयोः सन्ति
पुस्तकयोः सन्ति सम्यक् स्यन्दनं स्यन्दनयोः अयोः 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 चक्राणि अश्रूणि अस्तु सम्यक् अस्तु धन्यवादः भगिनि सो इदानीं बहुवचनम् अत्र अकारान्त पुल्लिङ्ग नपुंसकलिङ्ग अस्ति चेत् एषु एषु भवति आकारान्तस्त्रीलिङ्गे आसु ईकारान्तस्त्रीलिङ्गे ईषु इति भवति अस्तु वीणाबेन् भगिनी विष्णुमहोदय
धन्यवादः
आं भगिनि
धन्यवादः
जनाः मार्गेषु गच्छन्ति खड्गाः कोशेषु सन्ति वानराः वृक्षेषु क्रीडन्ति विचाराः ग्रन्थेषु भवन्ति
भवन्ति अस्तु मार्गेषु कोशेषु वृक्षेषु एवमेवं भवन्ति
सप्तमी बहुवचनम्
सप्तमी बहुवचनं कुत्र सन्ति इति प्रश्नस्य उत्तरं सर्वाणि पदानि उत्तराणि एव वृक्षेषु खड्गाः कुत्र सन्ति कोशेषु इति इदानीम् आकारान्तस्त्रीलिङ्गपदं गोपिका भगिनी सर्पाः
आं भगिनि सर्पाः शाखासु सञ्चरन्ति वार्ताः पत्रिकासु सन्ति सिंहाः गुहासु वसन्ति छात्राः वाटिकासु विहरन्ति
विहरन्ति सो अत्र आ लिखित्वा सु पूर्ण आ लिखित्वा सु शाखा शाखासु पत्रिका पत्रिकासु गृहासु एवम् अस्तु इदानीं नपुंसकलिङ्गपदं समानमेव चक्रेषु फलेषु वनेषु स्त्रीलिङ्गे अङ्गुलीषु वीतीषु वापीषु किञ्चित् अग्रे गच्छामः वा आम् इति मन्ये अस्तु इदानीम् अभ्यासं कुर्मः वयम् अस्तु जयश्री भगिनी
ग्रन्थः ग्रन्थः ग्रन्थे ग्रन्थ्योः ग्रन्थेषु
ग्रन्थयोः ग्रन्थेषु देहः कथं भवति?
देहयोः
भवति देहयोः जनः वदतु जनः
जनः जने जनयोः जनेषु
जनयोः जनेषु अस्तु मालती भगिनी वक्तुमिच्छति वा
यज्ञः यज्ञे यज्ञयोः यज्ञेषु
अग्रे कालः
कालः काले कालयोः कालेषु
सम्यक् निर्मला भगिनी अग्निः इकारान्तपदम् सो अत्र अग्नौ इति भवति अग्नौ अग्नौ इति अग्नौ अपि च अग्न्योः अन्ते अकारान्तपदम् अथवा आकारान्तपदम् अस्ति चेत् अयोः इति भवति अन्ये सर्वत्र हलन्तपदम् इव अग्न् केवलं वयम् अग्न् एव लिखामः अग्न् लिखित्वा योः अग्न्योः अवगच्छति वा कथम् आगच्छति इति अग्न्योः
इकारान्तपदम् ईकारान्तपदं समानमेव
वा
धन्यवादः
धन्यवादः केवलम् अकारान्त आकारान्त एव अयोः भवति अन्य सर्वत्र न भवति इकारं वा उकारं वा ऋकारं वा अग्नयोः बहुवचने अग्नि इति मूलरूपं लिखित्वा शु मुनिः धन्यवादः भगिनि मुनिः कथं भवति मिलित्वा कुर्मः
मुन्योः
मुन्योः अत्र मुनौ मुनौ मुनौ
मुन्योः
सम्यक् मुन् इति लिखन्तु मुन् मुन्योः मुन्योः परन्तु एतादृशं न लिखामः मुन्योः इति लिखामः न इति हलन्तपदं हल् हल् भवति मुन्योः अपि च मूलरूपं किं मुनि मुनि मुनिषु मुनिषु इति भवति मुनिषु इति भवति इदानीं वदतु भगिनि राशौ राश्योः राशिषु राशिषु अस्तु गिरिः
गिरिषु
भगिनि
राशिः इत्युक्ते किं
राशिः इत्युक्ते कलेक्षन् अथवा रो इति कलेक्षन्
धन्यवादः
गिर्योः गिरिषु एवम् एवं भवति गुरु अपि समानमेव यथा औ भवति अत्र अपि औ मुनौ अग्नौ राशौ गिरौ गुरौ औकारः भवति औ औ अत्रापि हलन्तपदम् इव लिखित्वा अनन्तरं वोः अत्र वो भवति किमर्थं वो ऊ अस्ति ऊ अस्ति चेत् वो भवति असु कथं भवति असु असौ अस्वोः मूलरूपं लिखित्वा शु असुषु गुरु शु
भगिनी अर्थं किम् असुः
असुः इत्युक्ते अश्रु इति वदामः खलु टियर् इति टियर्
धन्यवादः भगिनि
अशु इत्युक्ते अश्रु अश्रुणी इति अस्ति खलु अस्माकं नेत्रतः आगच्छति अश्रु नो दिस् इस् अ सकार इट् इस् अ सेम् पर्यायपदम् अस्ति असु अण्ड् अश्रु आर् द सेम् समानार्थकपदम् अश्रु दिस् इस् अ नपुंसकलिङ्गपदम् अस्तु इशुः इशुः कथं भवति सर्वे अवगच्छन्ति वा उत्तमम् इशुषु अत्र द्विवारम् आगच्छति बाहुः कथं भवति
बाहुषु
मूलरूपं शु तावदेव मूलरूपं शु इदानीं ऋकारान्तपदम् ऋकारान्तपदं किञ्चित् भिन्नमस्ति कर्तरि कर्तरि कर्त्रोः सो प्रथमं वयं हलन्तपदमिव लिखामः हर् कर्त् अनन्तरं ऋ अस्ति चेत् रेफा भवति कर्त्रोः कर्त्रोः इति भवति तकार रकारः एवं भवति कर्त्रोः कर्त्रोः कर्तृ इति मूलरूपं कर्तृषु कर्तृषु पिता कथं भवति पितरि पितरि अस्तु योधा
योधरि
योधरि
योद्रोः
योद्धृषु
योद्धृषु योद्धृषु एवं भवति धाता धातृषु सर्वे अवगच्छन्ति वा अस्तु अस्तु
धात्री वा धात्री वा भगिनि
धात्री धात्री धात्री
धन्यवादः
धात्री पितरि धात्रि योधरि
भगिनि धात्री मीन्स् अर्थ्
आम्
अवनि
आम् अवनि सम्यक्
भगिनि इट् इस् नाट् पितरि बट् पितरि रैट्
पितरि सर्वत्र तथा एव पितरि
ओन्लि कर्ता विल् बि कर्तरि
बिकास् आफ् द ऋ इस् आल्रेडि देर्
आल्रेडि ओ
भगिनी धाता किमर्थम्
अर्थः लैक् अवनि अथवा भूलोकम् अस्ति भू भूमि पृथ्वी.
इट्स नॉट दाता पर्सन हु गिव्स.
दाता इज दाता दाता
ओ
दान दाता.
ओके
उत्तम प्रश्न.
सो दिस इज अर्थ
अर्थ अर्थ.
ओके ओके धन्यवाद भगिनी.
हाँ धन्यवाद.
Agni, could you kindly explain how to write dhatrushu? Which tra would this be?
Similar. Dha, tra is the smaller rupa. Dhatra and then shu.
Okay, okay. It is not the troho but the tru. Okay.
Tru. Everything will be like this.
So, yodhru.
Yodhru. Yodhru. Okay. So, yodhru.
धन्यवादः.
धन्यवाद. अस्तु अग्रे आकारान्तपदं वयं जानीमः. गीता कथं भवति? गीतायां गीतासु अम्बासु. अस्तु अस्तु. सो अत्र इकारान्तपदं सो स्त्रीलिङ्गे याम् एकवचने यां कथं भवति? श्रुतिः. श्रुत्याम् अन्यत् एक विकल्पमपि अस्ति खलु. श्रुतौ पुल्लिङ्गे हरौ इति अस्ति खलु, तादृशं श्रुतौ. श्रुत्योः श्रुति श्रुति
श्रुतौ कथं भगिनि?
श्रुतौ उत्तमप्रश्नः. अत्र मुनिः अस्ति मुनौ, अग्निः अग्नौ. अतः इकारान्तपदमस्ति चेत् पुल्लिङ्गं वा स्त्रीलिङ्गं वा समानरूपं भवितुम् अर्हति. परन्तु वयम् आरम्भे एतदेव पठामः. मतिवत् इति भवति. परन्तु इदानीं आरम्भस्थाने वयम् आरम्भस्तरे यामेव वदामः. याम्
इत्युक्ते पुल्लिङ्गं वा भगिनि?
तौ इत्युक्ते पुल्लिङ्ग इव भवति, बट् स्त्रीलिङ्ग अपि भवितुम् अर्हति. We can do it in Strilinga also.
Srutyam vasrutau.
Vikalpa dvayam asti. Srutau api asti, Srutyam api asti.
Astu bhagini.
Matihi asti te, Matyam api asti, Matau api asti. Atra api ikaranta pada, akaranta आकारान्त विहाय अन्य स्वरः अस्ति चेत् हलन्तपदम् इव लिखित्वा योः योजनीयम्. सो अतः श्रुत् इति लिखित्वा योः. सो अतः श्रुत्योः इति रूपं भवति. श्रुत्योः अन्ते श्रुति शु मूलरूपं लिखित्वा शु. सर्वत्र शु एव, केवलम् अकारान्त पुल्लिङ्गे नपुंसकलिङ्गे एषु भवति. एषु आकारान्त स्त्रीलिङ्गे आसु. अन्य सर्वत्र शु एव, मूलरूपं शु. गतिः कथं भवति? गतिः
सत्यम्
गत्योः गतिषु नदी वयं जानीमः नद्योः नदीषु दीर्घमस्ति नदी अतः नदीषु नद्याम् नदीषु आवर्तिनी कथं भवति आवर्तिन्योः आवर्तिनीषु आवर्तिनीषु इति भवति रज्जु उकारान्तपदम् अतः व भवति
आवर्तिनी इत्युक्ते
आवर्तनम् इत्युक्ते पुनः पुनः आगच्छति रिपीट्
अस्तु अस्तु भगिनि
तनियावर्तनम् इति वदामः खलु सङ्गीते तनियावर्तनम् अस्तु उकारान्तपदमस्ति चेत् व भवति यकारः अथवा अकारः अस्ति चेत् य परन्तु अत्र व अतः रज् वाम् सो अत्रापि रज् हलन्तपदं लिखित्वा वाम् अत्रापि हलन्त लिखित्वा वोः रज् वोः मूलरूपं शु रज्जु शु मूलरूपं शु धेनुः कथं भवति
धेन्वां
धेन्वां धेनुषु धेनुषु इति भवति
रज्जु इति स्त्रीलिङ्ग भवति
आम् स्त्रीलिङ्ग महोदय अहमपि पुल्लिङ्गम् इति चिन्तयामि चिन्तितवती परन्तु स्त्रीलिङ्गे एव रज्जु अस्तु वधू वद्वा
भगिनी कोष्ठे आवर्तिनी वर्ल्पूल् इति लिखितम् अस्ति
वर्ल्पूल् अपि वर्ल्पूल् अपि अन्य अर्थः अस्ति सम्यक् अन्य अर्थः अस्तु प्रायः वर्ल्पूल् एव सम्यक् इति चिन्तयामि किमर्थमिति आवर्तनम् एव रेपिटिशन् केवलम् आवर्तिनी इत्युक्ते प्रायः वर्ल्पूल् एव सम्यक् धन्यवादः भगिनि
अत्र रूपम् आवर्तिनी वा भगिनि
आवर्तिनी स्त्रीलिङ्गपदमस्ति चेत् प्रायः वर्ल्पूल् एव अथवा अन्य किमपि परन्तु आवर्तनम् इत्युक्ते पुनः पुनः तत्र एव आगच्छति तदेव आवर्तनम् अस्तु सो अग्रे वधू अस्ति चेत् अपि तथा एव उकारान्तपदम् इव एव भवति समानं भवति उदाहरणार्थं वद्वाम् इति वदामः चेत् वधूः वा वधूः वा न ज्ञातुं शक्नुमः रूपं दृष्ट्वा केवलं रूपमेव दृष्ट्वा न ज्ञातुं शक्नुमः कुत्र ज्ञातुं शक्नुमः इत्युक्ते बहुवचने वधूषु ह्रस्वम् अस्ति चेत् वधुषु एव परन्तु एकवचनं द्विवचनं समानं भवति अन्यत् एकम् अस्ति एकवचने वद्वाम् एकमेव रूपं भवति परन्तु ह्रस्वम् अस्ति चेत् विकल्पद्वयम् अस्ति खलु रज्वाम् अपि अस्ति अन्य किम् अस्ति
रज्जो
रज्जौ 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 अपि भवति अस्तु चमूः कथं भवति चमूः रूपाणि
चमूषु
सम्यक् चमूषु अस्तु ऋकारान्तपदं माता मातरः इति प्रथमाविभक्ति बहुवचनं ततः सम्यक् मातृषु इदानीं क्षेत्रं क्षेत्रं वयं जानीमः क्षेत्रं क्षेत्रे क्षेत्रयोः क्षेत्रेषु नूतनविषयं नास्ति स्यन्दनं स्यन्दने स्यन्दनयोः स्यन्दनेषु शस्त्रं शस्त्रे शस्त्रे शस्त्रेषु अस्तु नूतनविषयं नास्ति इदानीम् इकारान्त उकारान्त अस्ति चेत् नकारः भवति नकारः सर्वत्र नकारः भवति अत्र मूलरूपं शु अक्षि अक्षिषु इव अक्षि इत्युक्ते नेत्रं वारि वारिणि वारिणोः वारिषु अक्षिणि अक्षिणोः अक्षिषु कुत्र
आक्षि इत्युक्ते अपि नेत्रः वा
अक्षि इत्युक्ते नेत्र अक्षि आक्षि आक्षि
कामाक्षि
काम अक्षि सो अत्र अयोगे आ भवति अयनम् अयनम् अयने अयनयोः अयनेषु अयन् ऐ अयोः अयनयोः अयोः अयोः अयनेषु एवम् एवं भवति सो अत्र कुत्र नकारः भवति कुत्र नकारः भवति अहं पुनरेकवारं नियमं वदामि रेफा ऋकारः अपि च षकारः अस्ति अस्ति चेत् नकारः भवति परन्तु मध्ये किम् अस्ति इति अपि गणनीयम् उदाहरणार्थं स्वराः सन्ति चेत् स्वराः सन्ति चेत् नकारं भवतु अपि च कवर्गः पवर्गः मध्ये आगच्छन्ति चेत् नकारः भवति अन्यदेकं यावः मध्ये आगच्छति चेत् नकारः भवतु नो चेत् नकारः न भवति इति अस्ति उदाहरणम् अत्र पश्यतु मधु मधु मधुनि एव नकारः नास्ति किमर्थम् अत्र रेफा नास्ति ऋकारः नास्ति षकारः नास्ति अतः अत्र किमपि न भवति जानु अपि नि एव श्मश्रु कथं कथं भवति श्मश्रु नकारः भवति श्मश्रूणि श्मश्रूणि अश्रु अपि णि भवति किमर्थम् इत्युक्ते रेफा अस्ति अत्र रेफा अस्तु अस्तु अत्र अपि सर्वत्र नकारः भवति नपुंसकलिङ्गे मधु मधुनि मधुनोः मधुषु अत्र यकारः न भवति वकारः न भवति रेफा न भवति नकारः भवति नपुंसकलिङ्गे नकारः अस्तु वा स्मरन्तु तत् मधुनि मधुनोः मधुषु परन्तु नियमः अत्र समानमेव मूलरूपं शु जानु जानुनि जानुनोः जानुषु श्मश्रु श्मश्रुणि श्मश्रुणोः श्मश्रुषु अश्रुणि अश्रुणोः अश्रुषु एवं रूपाणि भवति वयं पाटर्न् जानीमः चेत् सुलभः भवति कण्ठस्थी कुर्मः चेत् सुलभः नास्ति अभ्यासं कुर्मः वा इदानीम् अस्तु चम्पा भगिनी इदानीमेव स्वागतं भगिनि. ब्रह्मसरोवरः कुत्र अस्ति?
ब्रह्मसरोवरः कुरुक्षेत्रे अस्ति.
कुरुक्षेत्रे, कुरुक्षेत्रे अस्ति. सम्यक्. गोपिका भगिनी अग्रे. नर्तकाः कुत्र नृत्यन्ति?
नर्तकाः सन्ति.
भगिनी का वदति?
गोपिका भगिनी. गोपिका भगिनी.
नर्तकाः मञ्चे नृत्यन्ति.
मञ्चे, मञ्चे नृत्यन्ति. सो अत्र एकनिमिषं भगिनि, चम्पा भगिनी त्रीणि रूपाणि वदतु. कुरुक्षेत्रे,
कुरुक्षेत्रे, कुरुक्षेत्रं, कुरुक्षेत्रे, कुरुक्षेत्राणि.
सो तत् तत् एक प्रथमाविभक्ति रूपाणि.
सप्तमी विभक्ति कुरुक्षेत्रे, कुरुक्षेत्रयोः, कुरुक्षेत्रेषु.
कुरुक्षेत्रेषु. अस्तु, सम्यक्. इदानीं गोपिका भगिनी, मञ्चे,
मञ्चे, मञ्चयोः, मञ्चेषु.
मञ्चयोः, मञ्चेषु, मञ्चेषु इति भवति. सम्यक्. मञ्चयोः, मञ्चेषु. अस्तु.
इत्युक्ते किं भगिनि?
स्टेज्, वेदिका इति. वेदिका, वेदिका, मञ्च. धन्यवादः भगिनि.
धन्यवादः भगिनि.
जयश्री भगिनि.
गङ्गोत्री हिमगिरि अस्ति. गङ्गोत्री हिमगिर्गिर्यौ अस्ति. हिमगिर्यौ, गिरौ, हिमगिरौ, हिमगिर्योः, हिमगिरीषु,
गिरीषु. सम्यक्. गिरीषु, गिरौ, गिर्योः, गिरीषु. सम्यक्. अस्तु. मालति भगिनी वक्तुम् इच्छति वा?
पूरणानि नीतिकथाः. पुराणानि,
पुराणानि सन्ति. क्षम्यतां. पुरा,
पुराणौ.
सो प्रथमं मूलरूपं किम् इति वदतु.
पुराणानि,
पुराणानि इति
पुराणः,
पुराणं, पुराणं,
पुराणं, पुराणं, या, पुराणं,
पुराणं, पुराणे,
पुराणं, पुराणे, पुरा,
पुराणानि बहुवचनमस्ति.
पुराणानि, पुराणानि, पुराणं, पुराणे, पुराणानि. इकारान्त, रैट्? दिस् इस् इकारान्त.
नपुंसकलिङ्गपदं पुराणम् इति अस्ति खलु. सो अतः नपुंसकलिङ्गपदम्.
ओके.
परन्तु अकारान्त, उदाहरणार्थं गृहम् अस्ति. गृहे,
गृहे,
गृहे, गृहयोः, गृहयोः, इति गृहे, गृहयोः, गृहेषु इति रूपाणि सन्ति. इदानीं नीतिकथाः, नीतिकथाः कुत्र सन्ति?
पुराणिकथाः पुरण्य, पुरण्यो, पुराणेषु,
पुराणेषु,
पुराणेषु, पुराणेषु,
पुराणे, पुराणयोः, पुराणयोः,
पुराणेषु
सन्ति. पुराणे इति एकवचनं. पुराणे, पुराणयोः द्विवचनं.
द्विवचनं.
पुराणेषु, गृहे, वनयोः, वनेषु. गृहे, गृहयोः, गृहेषु. पुराणे, पुराणयोः, पुराणेषु. धन्यवादः भगिनि. धन्यवादः. अस्तु, अग्रे.
भगिनि, तत्र वयं हिमगिर्याम् अपि वक्तुं शक्नुमः वा?
सत्यं, हिमगिर्याम् अपि. न वक्तुं शक्नुमः. किमर्थमिति गिरिः इति पुल्लिङ्गपदमेव.
स्त्रीलिङ्ग एव अहं
विकल्पद्वयं भवति. पुल्लिङ्गे एकवच पुल्लिङ्गे एकः एव विकल्पः.
हिमगिरिः पुल्लिङ्गः अस्ति.
पुल्लिङ्ग पुल्लिङ्गपदं गिरि इति पुल्लिङ्गपदमेव.
धन्यवादः.
धन्यवादः. अस्तु अग्रे निर्मला भगिनि.
हंसाः तडागः तरन्ति. हंसाः तडागे
सम्यक् भगिनि. तडागे तरन्ति. तडागः एकवचनम् अस्ति. तडागः तडागे त्रीणि रूपाणि कानि? तडागे
तडागेषु.
तडागेषु सम्यक्. तडागेषु तडागेषु इति सम्यक्. अस्तु सागरि भगिनि.
आं भगिनि. अश्वाः युद्धभूमौ धावन्ति.
युद्धभूमौ
युद्धभूमौ युद्धभूम्योः युद्धभूमिषु.
भूमिषु इदानीं भूमिः इति स्त्रीलिङ्गपदम्.
भूम्यां
भूम्याम् अपि
भूमौ वक्तुं शक्नुमः वा?
शक्नुमः परन्तु
भूम्याम् इति श्रेष्ठमस्ति वा?
तादृशम् अस्ति परन्तु प्रथमस्तरे वयं भूम्याम् इति वदामः चेत् अस्माकं मनसि स्थिरं भवति भूमिः इति स्त्रीलिङ्गपदम्. अतः एव अतः एव भूम्याम् अपि वक्तुं शक्नुमः भूमौ अपि वक्तुं शक्नुमः.
This is the masculine
rupam, but we can use it for strilingam also.
Only for certain words.
Only for hrasva ikara, hrasva ukara, ukaraanta strilinga padam. Agree?
Is it Bhumishu or Bhumisu?
Shu. Shu eva. Only for Akaranta padam, we say Su. Akaranta Srilinga padam. Udaharanam Guha asti. Guha is an Akaranta Srilinga padam. Here we say Su.
Dhanyavad.
Astu. Agree? सागरि सागरि अभवत्. सन्ध्या भगिनि.
आं भगिनि. हंसाः अश्वाः सोरि सिंहाः
सिंहाः
सिंहाः गुहेषु वसन्ति.
सो अत्र गुहा इति स्त्रीलिङ्गपदं. गुहा खलु गुहा. It's not guhah. Okay, so whenever you have sandehah, please check the koshah.
Okay, so it will be guhasu.
Guhasu.
Oh, okay, got it.
Guhasu. Okay, if I am wrong, we change it to guheshu. But I think guhasu.
So guhayohu, it will be the same for pulling.
Same for, yeah. So atra, trini rupakam bhavate. लैक् पाठशाला
गुहायां
गुहायां
गुहायां गुहयोः गुहासु
गुहयोः गुहासु गुहयोः गुहासु. अस्तु समयः अभवत् इति कति अस्ति? ओ बहु अस्ति. सो अतः अग्रे पश्यामः.
भगिनि गुहाः पुल्लिङ्गे अपि भवति वा गुहाः
अहं चिन्तयामि गुहा इति स्त्रीलिङ्गे एव इति
गुहा राजा भवति रामायणे
एकवारं
बहुवचने
बहुवचने एव सन्देहः भवति किमर्थम् इत्युक्ते द्वौ अपि समानरूपं खलु सो अहम् इदानीं पश्यामि गुहा इत्युक्ते किम् इति न ओके अस्तु इट्स् नाट् वर्किङ्ग्
भगिनी श्रीलिङ्गमेव भगिनि
श्रीलिङ्गमेव श्रीलिङ्गमेव अस्तु अस्तु विरमाम समयः अभवत् अस्तु शान्तिमन्त्रम् उक्त्वा समापयामः अस्तु बिकास् पीपल् हेव् अदर् थिङ्ग्स् टु डु मम समयः अस्ति परन्तु सम्यक् नास्ति अस्तु ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति हरि ओम् गुरुभ्यो नमः हरि ओम्
धन्यवादः भगिनी
एक निमिषम् ऐ लेट् मी स्टाप् द रेकार्ड् ऐ थिङ्क् ऐ स्टाप् द रेकार्डिङ्ग् खलु नो